सर्वेषां स्वागतम्। इदानीं ध्येयमन्त्रेण वर्गम् आरम्भं कुर्मः। नूतनवर्षशुभाशयाः सर्वेषां कृते। अस्तु भगिनी, आरम्भं करोतु।
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्। संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्। आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्। हिन्दुधर्मं समाजं च, पवित्रां संस्कृतिं तथा। संरक्ष्य ननु कुर्याम, विश्वं शान्तिसमन्वितम्। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ। श्रीगुरुभ्यो नमः। हरिः ॐ।
सुन्दरं भगिनी, धन्यवादः। अस्तु, अभ्यासदर्शिनि प्रति गच्छामः वयम्। अद्यतनविषयः अस्ति भूतकाल, खलु? भूतकाल वयं गतवर्गे एव पठितवन्तः यत् भूतकालरूपाणि केवलं प्रत्ययानि। प्रत्ययानि इत्युक्ते एकनिमिषम्, प्रत्ययानि इत्युक्ते धातु अस्ति खलु, धातु। पट् इति धातु, अत्र तवत् प्रत्यय योजयामः चेत् पठितवान् पठितवती इति रूपं भवति, रूपाणि भवन्ति। सो अत्र रूपाणि नाम अस्ति भूत कृदन्तरूपाणि, कृत् प्रत्यय। ओके, अत्र कृत् प्रत्यय इत्युक्ते धातु अस्ति चेत्, धातोः धातु इति नामकरणम् अस्ति क्रियापदस्य मूलपदम्, क्रियापदस्य मूलपदम् अस्ति धातु। एवमेव नामपदस्य मूलरूपम् अस्ति प्रातिपदिकम्, प्रातिपदिकम्। प्रातिपदिकम् इदानीम् अत्र पट् धातु अस्ति, तवत् प्रत्यय योजयामः चेत्, तवत् योजयामः चेत् पठितवत् इति रूपं भवति, पठितवत्। पठितवत् इति भूतकालप्रातिपदिकम्। पठितवान् पुल्लिङ्गे, पठितवती स्त्रीलिङ्गे। ओके, पट् धातु तवतु प्रत्यय, पठितवत् इति मूलरूपम् आगच्छति, मूलरूपतः पुल्लिङ्गे पठितवान्, स्त्रीलिङ्गे पठितवती। अत्र कृत् इति अस्ति चेत् पट् धातु इति अस्ति खलु, सो कृत् योजयामः चेत्, कृत् प्रत्यय योजयामः चेत् नामपदानि भवति, नामपदम्। तिङ्प्रत्यय योजयामः चेत् क्रियापदं भवति। पट् प्लस् तिङ् प्रत्यय पठति। लिक् तिङ् योजयामः चेत् लिखति, क्रियापदं भवति। परन्तु कृत् प्रत्यय योजयामः योजयामः चेत् नामपदं भवति. सो अत्र एतस्य भूतकालस्य नाम अस्ति कृदन्तरूपम्. सो अतः पठितवान् पठितवती गतवान् गतवती इत्यादीनि रूपाणि तिङ् प्रत्यये नास्ति, क्रियापदं नास्ति, केवलं नामपदम् एव. कृत् अन्ते पठितवान् पठितवती इति अस्ति खलु, सो कृत् अन्ते अस्ति, पठितवत् अन्ते कृदन्तरूपाणि सन्ति. सो अतः एतानि कृदन्तरूपाणि, भूतकालकृदन्तरूपाणि, एतानि क्रियापदानि नास्ति. एतानि क्रियापदानि न, बहु मुख्य अंशः एतत्. प्रश्नाः सन्ति वा?
So, there can't be any kriya pada, pada in the past tense? Everybody think is only nama padam?
No, uttama prashnaha, tatav purvam, ekam asti, bhutakale, so this is the proper kriya padam. Apatat, agachat, avadat. Okay. So, atra vayam, किमर्थम् अपठत् अगच्छत् न पठामः इदानीं, किमर्थं पठितवान् पठितवती इति एव पठामः इत्युक्ते, अत्र उपसर्गः अस्ति चेत्. सो एकनिमिषः, अहं सर्वान् त्यजामि. अस्तु, अत्र पट् धातु इति अस्ति चेत् अपठत् एव रूपम्. గుడ్ క్వశ్చన్. వి జనరలీ డోంట్ యూస్ ఫార్ నపుంసకలింగ, ఇట్ ఇస్ ఓన్లీ ఫార్ పుల్లింగ అండ్ స్త్రీలింగ. ఆర్ పతితం, లైక్ ఫలం, ద ఫ్రూట్ ఫెల్, ఫలం పతితం, ఫలం పతితం. अस्तु, सो अत्र गम् धातु इति अस्ति चेत् अगच्छत् इति रूपं भवति, अगच्छत्. बट् इफ् इट् इस् आगच्छति, देन् वाट् डि वि डु? इफ् यु एड् एन् आ उपसर्ग, देन् इट् विल् बि आगच्छत्. ओके, now if it is pratyagachat, so we have gachat, we have the gam dhatu, and then we have the a, and then we have the prati, then what do we do? It gets, so do we use a pratyagachat or pratyagat? So it's very confusing. So that's what they are saying, उपसर्गसहितधातूनां प्रयोगे जागरूकता आश्रयनीया. वी हेव् टु बि केर्फुल्. तत्र दोषाः भवति, दोषानां सम्भावना अधिकतया भवति. सो टु अवाय्ड् आल् दट्, अतः सरलता दृष्ट्या, लुकिङ्ग् अट् इट् फ्रम् मेकिङ्ग् इट् ईज़ी, सरलता दृष्ट्या गतवान् पठितवान् इत्यादीनि रूपाणि प्रयुज्यन्ते. ओके, दीस् रूपाणि आर् यूस्ड्.
भगिनि,
वदतु.
सो भगिनि, वेन् वि यूस् कृत् प्रत्यय, वेन् उपसर्ग अस्ति तरः,
गो अहेड् वदतु.
एन् अपठत् अगच्छतु जस्ट् रेग्युलर् भूत्काल.
yeah, that is the regular bhutakala.
Astu.
But, yeah, but here, even if you add the prati, and a, and then the gam, so we are adding two upasarga.
Right.
Then it will still be, ek nimsham bhagini. So, if you are using the apata, so this is called the lang lakara. So if you are using lang lakara, we have to use the upasarga first.
Okay.
Prat and then pratyagachat.
Astu, astu.
So when we do that, we have the sandhi rules. We have to follow the sandhi rules. Pratyagachat. So it becomes a little bit more challenging. But if you use the krit pratyaya, we are still using the sandhi. Pratya gatavan eva.
Okay.
Or gatavati.
Pratya gatavan. So pratya is a upsarga.
Prati and then a. Together pratya.
And a pathat, a is upsarga too?
For here, it is not really an upasarga. This is just how it is formed.
Okay. So when we use lang lakar, we have to use a pathat. But when we use katua, then we have to use
the one. In the end, we add in the end. For here, you add in the beginning.
Yes.
Agachat. Here you add in the end. Patita van, like that.
Asu. Avgatam.
Somebody else have a question? So, Sandhya Bhagini, va?
Yes, Bhagini. Bhagini, I just wanted to summarize my understanding of this. So if you could please correct me if I'm wrong, I would be grateful. So what I understand is that for lang lakara, we use the prefix of a. I mean, for to represent bhutakala. So for pat dhatu, it becomes a pathat. For gam dhatu, it becomes a gachat. This becomes complicated if the word already has a prefix. So you're trying to superimpose one prefix onto the other, and that is prone to error.
Correct.
And that is why we use either, patitavan or patitavati, depending on the linga. Am I right so far, Bhagini? Yes. What I am not clear about is, and I'm afraid although I heard the recording of the last class, which I missed, I'm not clear about what is the difference between Krita Padam and Tavatu Padam. I thought both Kritavan and Kritavati are representations of the Tavatu Pratyaya, isn't it, Bhagini? So what is the difference then between Krita Padam and Tavatu Pratyaya? Are they the same or are they variant?
They are the same.
Yeah. Oh, I see. Okay.
I'm taking time erasing this. I wish I can do it faster. Okay, so Atra, everything starts with the Dhatu. Okay. From dhatu we get nama padam, from dhatu we get kriya padam. So if you add the thing pratyaya, then we get the kriya padam. So in the kriya padam there are so many things, like, so we have the lat lakara, lot lakara, lang lakara, then we have the lring, the lrit, all those things. Evameva Indra Krit Pratyaya. We have so many also.
So
we have the Tavatu Pratyaya, which we are learning now.
Right.
And then we have the Tva, which we already know, right? Patitva.
Okay.
And then we have the Tumun, Patitum.
Okay.
So everything together is called krit.
I see. Okay, Bhagini, I get it now. Okay. So that is the superset of all these. Tavatu, Tva, and Tumun. Okay, got it.
Thank you so much. It is either thing and you get the kriyapada, or you get the krit and the, krit, and then you get the namapadam. These are all namapadams. So these are all two different direction. It's going in different direction. So the difference is, in thing pratyaya, there is no linga bheda, kalo. Saha patati, sa patati. Saha apatat, sa apatat. Parantu aham. Aham patami, aham apatam. Parantu kridanta rupani asti chet. For example, tavatu. Aham patan, aham patitavati. Sa api patitavati eva. So this is based on linga. And linga is there only for namapadam. Linga is never used for the thing anta padam. So we call it thing anta. Like we have patati. So it has the ti ending. So it is a thing anta padam. So the krit, if it has a krit anta, like patitavan or patitva or patitum, like that, that has the tumun anta or tva anta. We call it tva anta padam. Tumananta padam. This is called Etavatanta padam. Or we just call together Kridanta padam.
Bhagini, Tumananta also doesn't have linga, right?
No. It doesn't have linga. And then the Twanta also doesn't have linga. They are all avyayanis.
But only the other one has linga when we make it patitavan and patitavati. That is kwanta, is it? What is it called?
Twanta pada.
Twanta. Dhanyavad.
Actually, it's not called twanta, but this is called the twanta pada. Like patitva is a twanta pada.
Dhanyavada Bhagini, very good explanation.
Dhanyavada. Because of your questions only. So this one we just called the Bhutakala Bhagini.
One more primary difference, apart from the fact that, you know, one has Linga Bheda and the other doesn't, is that conversely, the Tinganta Padam has variants for Purusha, depending on whether it is...
Yes, exactly.
Whereas the Nama Padams do not have that.
Something else I want to say. So atra udaharanartham etat vakyam pashyatu atra balakaha palam khaditavan iti asti. Okay. Atra kriya padam kem. So for any sentence, kalo, vakyam asti che, pada dvayam avashakam. Pada dvayam itikte, kriya padam avashakam. Apicha kartru padam avashakam. Karta avashakam, kriya avashakam. Atra balakaha palam khaditavan. Atra balakaha karta. Kartrupadam. Kriyapadam kem?
Asti.
Khaditavan.
Asti.
Asti, yeah.
Kalo, khaditavan is not a kriyapadam. Kalo, khaditavan is on the other side. Kridantapadam. Okay, kaditavan is a kridanta padam, tinganta padam nasti. So atra tinganta padam we can assume asti. Udaharanartham, if I say mama nama radhika, atra kriya padam kim? अस्ति क्रियापदं नास्ति सो वि जस्ट् हाव् टु से अस्ति लैक् इन् अवर् मैण्ड् अस्ति
अद्य हर्तव्यं वा भगिनि
अद्य हर्त एक्साक्ट्लि
is present tense, right?
Good question. Another good question. So, atra, we can do asti or asit. Udaharanartham, Angila bhashayam api asti kalo, she had come. She had eaten. That means bhutakala. But she has eaten means like idanintana bhutakala. Like the near past. I had gone to India. Aham Bharatam Gatavati Asam. Okay, so anyway, so you just have it in your mind, okay? Don't think too much about it, but then you know that this is not a Tingantapada.
Asit is past tense, right?
Asit is like, yeah, definitely past tense. Asti is like the near past.
So it is okay to say either, I mean, if we need to.
Yeah. It depends on what you want to express, Bhagini, you know.
So if you want to say she ate in the morning or something like that, you would say Asit.
Exactly.
If you say she's eaten just now, then you'll say Asti.
Asti, Idanimeva sa khaditavati asti.
भगिनी एक प्रश्नः बालकः फलं खादितवान् इट् इस् एण्ड् वी वाण्ट् टु मेक् क्रियापदं बालकः फलं हौ केन् वी मेक्
वदतु भवती एव वदतु बालकः फलं खादितवान्
खादितवान् एण्ड् बालकः फलं
सो यु एदर् एड् अस्ति और् आसीत्
खादितवान् अस्ति
खादितवान् अस्ति दट् मीन्स् सो उदाहरणार्थं यु आर् गोयिङ्ग् टु गिव् फ्रूट्स् फार् एव्रिबडि ओके
दिस् सेण्टेन्स् इफ् वि केन् यूस् अ टु वे One kriyapadam we can use and one we can use for the krut pratyaya.
No. We are always using the krut pratyaya, okay? But if you want to add optional, if you want to add, you add asti or asit. Otherwise, this sentence is okay.
Astu bhagini. Dhanyavada.
Astu. Eka nimsha bhagini. So the asti or asit, you add... If you want to express, like, you know, the if it is the near past or something that happened some time back, like that. Prashna ha bhagini, vadatu.
Suppose we don't say asti or asit, then would khaditavan mean has eaten or ate?
Ate.
Okay, not eight. Has eaten.
No.
Okay. So the boy ate the fruit, and if we want to say just ate, then we would say asti, ate some time back, it is asti. That would be the difference.
Correct.
Okay, Bhagini.
But that is the past tense, right, Bhagini?
Everything is past tense, Bhagini. So if I say balakaha phalam khaditavan, is fine. Balakaha phalam khaditavan asti. He just ate like that. Balakaha palam khaditavan asit, he already ate like that.
If you say balakaha palam khaditavan, then it could be either earlier or just now, no? If you don't add asti or asit.
Correct.
Bhagini, in this balakaha palam khadati sma. Is that also all right?
Right. So, kadati sma is like, we know it was past continuous, kalo, past continuous. So, that means he was eating at some time. So, it's good if you specify a time, like when I went to his house, yada aham balakasya griham gatavati, tada balakaha kadati sma, he was eating.
So you have to give a context. You cannot just say balakah phalam khadati sma.
Well, you either give a context in the previous sentences or in this sentence itself.
Astu. Dhanyavada.
So for you see this often in stories, right? Yes. Like
astu, Bhagini.
So we can say vadatu.
Tadeva aham prichami.
अस्तु
भगिनि
गच्छामः. अस्तु का करोति गोपिका भगिनि? वदतु.
एकः प्रश्नः. वाट् ऐ अण्डर्स्टुड् इस् बालकः, इफ् द बालकः स्टाण्डिङ्ग् इन् फ्रण्ट् आफ् मी, केन् ऐ ट्रान्स्लेट् दिस् टु मातृभाषा भगिनि? पयन् palam saapitava naga irikiran, like that.
So because kaditavan is very dependent on balakah, because if it is balika it will be kaditavati.
So chaapitta kondirikiral or irikiran, that is the difference.
Like, you know, saptavan. Saptavan avan. Saptaval aval. Like that.
Correct.
He who had eaten is the balakaha. She who has eaten is valika. Like that. So, kaditavan can be said like he who has eaten or he who ate. Or he who had eaten, like that. Depending on asti, asit, or just kaditavan means he who ate.
Rather than trying to translate literally, to put it very simply, avan padam saapittu vittan.
That's it.
If you try to translate word for word, then we are getting into all these complex words which coming in once again, sentence pretty longer.
Yes. Nishchayana. So basically just accept this as bhutakala. That's it. Okay? Okay. Astu. Arambam kurmaha abhyasam. Astu. Gopika bhagini. Karot.
Sevakaha karyam kritavana.
Kritavan. So they have given the krit pratyaya, that is, this is the
tavatu pratyaya.
This is the base form.
Bhagini, we have done this exercise.
Oh, we have done it before. Okay, astu tarhi. We'll move forward then. So
krit
did you
is
do
the dhatu, right, Bhagini?
No. This is the
अस्तु भगिनि. अस्तु.
कृ इस् द धातु, द कृत् इस् द रूट् फार्म् फार् द प्रत्यय. ओके, प्रत्यय.
अस्तु भगिनि. अस्तु.
ओके, सो हव् वी फिनिश् दिस् एक्ससैज्?
आं भगिनि, अग्रे अभ्यासः समाप्तम्.
ओ, भूषणः अपि अभवत्. भूषणः अपि
अभवत्. अभ्यासः 33.
धन्यवादः. प्राणेशः इदानीम्. अस्तु, धन्यवादः. प्राणेशः बालिकाविद्यालयस्य अध्यापकः. सो अत्र अपि समासपदं. सो जस्ट् वाच् औट् फार् दीस् ब्यूटिफुल् वर्ड्स्. बालिकाविद्यालयस्य अध्यापकः. वार्षिकोत्सवनिमित्तं वार्षिक उत्सवनिमित्तं सः काश्चन विद्यार्थिनीः विद्यार्थिनीः रूपं किम्
द्वितीया बहुवचनं
स्त्रीलिङ्गपदं खलु विद्यार्थिनी विद्यार्थिनीः विद्यार्थिनीः उद्दिश्य कानिचन कार्याणि उक्तवान् आसीत् Here they have add asit. You don't have to, but they added. Tasu kaschana kritavatyaha. Here they did not add. Tasu kaschana kritavatyaha. We can say asit or asti. Anyaha kaschana na kritavatyaha. Atra api nasti. Ka kim karoti iti. सा कृतवती वा न वा इति च सः स्वपुस्तके एव लिखितवान् अस्ति हियर् दे पुट् अस्ति सो दिस् इस् वे पास्ट् ओके उक्तवान् आसीत् पूर्वमेव लाङ्ग् टैम् बेक् आर् अट्लीस्ट् नाट् रैट् नौ लिखितवान् अस्ति इदानीमेव सः लिखितवान् ओके दिस् इस् वेरि गुड् एक्साम्पल् आसीत् अस्ति to convey our
bhagini in the sentence tasu kanchana krutavatyah will it be santi or asti bhagini
uttama prashna santi eva kalo santi or asan
asan ha dhanyavad
so, yeah so if it is asan there is no linga bheda
right
Santi, no linga beda. Because asit and asti are all, you know, asdhatu and it is a proper lakara.
Right, because kanchana means some, which is plural, right?
Correct. So this is actually kaschana.
Kaschana, okay.
Kahachana.
Kahachana. Because it's strilinga.
Yes, strilinga, kake kaha. Kake kaha kaschana. So because the visarga will become shakara, like that. Shakara. Atra api, same thing. Kaschana. Kritavatyaha. Asan or santu.
Sorry, kaschana means bahut kuch.
Some.
Okay.
So whenever we have the chana or the chit, when we want to say somebody or something, but so we have to add the question, and then we put the question here. For example, kaha kritavatyah, so you add kaschana kritavatyah. Supposing these are all males, how will we ask the question?
Kritavantah.
Kritavantah. How will we ask the question, who kritavantah?
Kaha.
Keshchana.
So there won't be sha, but kechana.
Kechana, I see.
Oh, okay. Because the sha comes only for the visarga. Visarga is replaced by sha.
Right.
So it will become kanchana?
It will become kechana.
Okay.
Supposing there are things, okay? I'm asking you, what things do you want? What will be the question? Kim avashyakam, okay? Kim. What is the bahuvachanam of kim?
Kani chana.
So it will become kani chana vastuni. Avashyakani, like that. how beautiful it is, kalo bahu sundara bhasha
bagini
bahu sundara bhasha
satyam
satyam satyam bahu sundara bhasha astu ah vayam avagachamah kalo etat
bagini I'm very sorry I have one more question
No, don't be sorry, Bhagini.
So, sometime back you had explained to us as to how the last letter will decide what is the connector between, I mean, when we were talking about the dot. So, at that time, we said cha means na, cha, 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 na. So, that is only with respect to the ma sound, is it, Bhagini, and not for the... So that is why, otherwise it would have been Kanchana, right? Because it is Kaha, it becomes Kaschana, is it?
Yeah, because it, the Visarga, the Visargasya Stane Shakaraha Bhavati. What is your question? I don't understand.
No, I think I'm a little confused because you had explained it with respect to the table, no, Bhagini, ka, ka, ga, ga, na, ga, na, cha, cha, ja, ja, na. So at that time, in terms of how we write it correctly, so we would use the last letter of the ka varga or cha varga depending on what is the consonant that follows.
I see. So I think you're talking about the anuswara which comes in the middle of a word.
Yes, 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 Bhagini.
Yeah. Yeah, so you put it like a gum and then ga.
Ha, ganga. Ha.
Ga, ga, ha. Nga. So it will become ganga.
Ganga, right.
So this is not, I mean, there is no connection between this and this beginning.
And this, okay. No, I get it. Ha. This is sandhi, whereas that is more in terms of how to write it correctly.
Correct.
Okay, Bhagini. Dhanyavada.
अस्तु माधवी सो एतदपि बहु सुलभः अभ्यासः एव माधवी माला क्रीणाति माधवी माला क्रीतवती ओके सो अग्रिम अभ्यासं कुर्मः गोपिका भगिनी
आं भगिनी श्रीविद्या नृत्याभ्यासं कृतवती
तावदेव श्रीविद्या नृत्याभ्यासं कृतवती अत्रापि पश्यतु अस्ति आसीत् नास्ति परन्तु चिन्ता मास्तु जस्ट् बी अवेर् दट् कृतवती इस् नाट् अ प्रापर् क्रियापदं सागरि भगिनी
माला अतिथिगृहं न गतवती
न गतवती अस्तु उत्तम केतकी भगिनि
भगिनि नर्मदा भावचित्रम् अलङ्करोति नर्मदा भावचित्रम् अलङ्करोति
No, atra
alankaro no.
So we have two things here, kalo
alankritavati.
So let Ketaki Bhagini answer, okay? Dhanyavad. Mm-hmm. So we have alam is a upasarga,
right?
Then we have karoti. So whenever we have upasarga and as actual kriya padam, you do the Kriyapadam first and then you add the Upasarga. How will we say for Karoti?
Kritavati.
Kritavati. And then you add the Alam.
Kritavati Alam?
No. Before the Kritavati, you add the Alam.
Alam Kritavati.
Alam Kritavati.
Alam Kritavati.
Tavateva. Punaha vadatu Narmada.
Narmada Bhava Chitram. अलङ्कृतवती
अलङ्कृतवती उत्तम
ओ यस् 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 करोति करोति आई हेव टु चेञ्ज् टु कृतवती अस्तु अस्तु भगिनि
अलङ्कृतवती. अस्तु महोदय,
हौ डु यु रैट् अलङ्कृतवती? अलङ्ग् सेपरेट्लि अण्ड् कृतवती सेपरेट्लि?
नो 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 नो, इट्स् जस्ट् टु गेट् द फार्म्. अलङ्ग् कृतवती लैक् दट्.
The crew will go below the ing, okay, that's what I was. If you put ing separately and crew separately, that's also okay, right?
Yeah. So we can write like this, alang, and then, but you have to put that thing there, and then kritavati. But this is the proper form. Astu, Sharada Bhagini, etat karotu. Chaturtam.
कला कार्यक्रमावलीं लिखति. कला कार्यक्रमावलीं लिखितवती
न लिखितवती. अस्तु, उत्तमं. श्रीनिवासमहोदय, कावेरी.
कावेरी रङ्गवल्लिचूर्णं न आनीतवती.
न आनीतवती, नीतवती आनीतवती. उत्तम. सविता भगिनि.
आं भगिनि. विनुता प्रदर्शिनीम् आयोजयति. विनुता प्रदर्शिनीम् आयोजनं कृतवती.
यु केन् डू देट्. वेरि 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 स्मार्ट् आफ् यु भगिनि.
ओके. विनुता प्रदर्शिनीम् आयोजितवती.
आयोजितवती. उमाकृष्णन् भगिनि.
आं भगिनि. सुधा एत्वन् सुधा प्रदर्शनार्थं वस्तूनि सङ्गृह्णाति. सो सुधा प्रदर्शिनार्थं वस्तूनि सङ्गृहीतवती.
उत्तमं. गृहीतवती, सङ्गृहीतवती.
उत्तमं. लिखतु भगिनि.
ओके. सो हियर् दे हाव् इट् सेपरेट्लि. सङ्गृहीतवती.
भगिनी, द न डिसप्टियर्स् इस् इट्? सो because the original word is sangrahanati.
Sangrahanati,
sangrahanati, sangrahanati. So the na goes away. So it is not sangrahinatavati. It's not that, right?
No.
Okay, so the na goes and it becomes sangrahitavati. Okay. Dhanyavad.
Dhanyavad. Astu, agre? Sandhya Bhagini.
रञ्जिनी स्वच्छताकार्यं परिशीलयति. रञ्जिनी स्वच्छताकार्यं परिशीलितवती.
परिशीलितवती. अस्तु, परमेश्वर महोदय.
यस् मेम्. पद्म आसन्दान् आनयति. पद्मा आसन्दान् आनीतवती. पद्मा आसन्दान् आनीतवती.
बट् अत्र एक्स् अस्ति खलु, अतः
सारी. पद्मा आसन्दान् न आनादवती.
आनीतवती. आसन्दान् इति रूपं किम्?
सन्द्वान्
आसन् आसन्दान् इति
बहुवचन
पुल्लिङ्ग बहुवचनं
पुल्लिङ्ग द्वितीया विभक्ति बहुवचनं सो अत्र स्त्रीलिङ्गे बहुवचनम् आह एव ओके सो सो दिस् इस् अ वेरि इम्पार्टेण्ट् पाय्ण्ट् माला मालाः एव परन्तु पुल्लिङ्गे आन् आगच्छति ओके ईकारः अस्ति चेत् अपि ईः एव कुत्र विद्यार्थिनीः ओके आकारान्तस्त्रीलिङ्ग ईकारान्तस्त्रीलिङ्ग ईः आह परन्तु पुल्लिङ्गे आन् नपुंसकलिङ्गे नी भवति आनि वस्तूनि पुस्तकानि खनित्राणि इत्यादि ओके सो ऐ जस्ट् वाण्ट् टु पायिण्ट् औट्
भगिनि वेन् यु आर् आस्किङ्ग् वाट् इस् द डिस्क्रिप्शन् आफ् दट् वर्ड् इन् वाट् आर्डर् शुड् वि गिव् इट्
ओके सो अत्र ऐ जस्ट् आस्क् यु सो द प्रापर् वे टु आस्क् इस् पदस्य परिचयं करोतु इन्ट्रोड्यूस् द वर्ड् सो अत्र आसन्दान् इति स्वीकुर्मः चेत् आसन्द पुल्लिङ्गपदं पुल्लिङ्गपदस्य द्वितीयाविभक्ति बहुवचनरूपम्
you don't have to mention the ending
no it's already here kalo
so you say pullinga dvitiya vibhakti and then you say the bahuvachana last vachana is last
bahuvachana
first the lingam then the vibhakti then the vachana
yeah but you have to mention the word too
okay so we say the base the word asandah
asandah asandah
oh asandah okay okay then because asandah becomes prathama
yeah asandah okay. iti pullinga akaraanta pullinga padasya dvitiya vibhakti bahuvachana roopam
okay
any copy asti va atra यस्य नाम अहं न
आं भगिनि अहं वदामि वा
नाम किं रम्या भगिनी वा
आं भगिनि
अस्तु वदतु
गीता कणित्राणि प्रत्यर्पयति गीता कणित्राणि न प्रत्यर्पयितवती
सो अत्र वि हाव् द उपसर्ग प्रत्य अण्ड् अर्पयति खलु अर्पयति कथं लिखामः भूतकाल तव तु प्रत्यय अर्पितवती
न प्रत्यर्पितवती
करेक्ट् न प्रत्यर्पितवती गीता कणित्राणि न प्रत्यर्पितवती अस्तु
वाट् इस् द मीनिङ्ग्
हि डिड् नाट् रिटर्न् प्रत्यर्पितमिति मीन्स् टु रिटर्न्
कणित्राणि
kanitrani means shovels astu
bagini what is pradarshinyartham sudha pradarshinyartham
atrava to show
na bagini तस्य समीपे सुधा
प्रदर्शिन्यर्थं प्रदर्शिनी प्रदर्शिन्यर्थम्
फार् द शो
प्रदर्शिनी इस् एक्सिबिशन्
आम् प्रदर्शिनी इस् एक्सिबिशन्
इस् इट् नाट् प्रदर्शिन्यर्थं भगिनि
Pradarshini. I think it is like how somebody else said, this is for the show. Pradarshini. I think it should be artham, hello? Pradarshini artham. Pradarshini, hello? E plus artham is Pradarshini artham eva. अस्तु
ओ अस्तु अस्तु भगिनि अस्तु
सो अत्र पाठनं प्लस् अर्थं सो वि टेक् आफ् द म पाठनार्थं सो अत्र प्रदर्शिनी प्लस् अ प्रदर्शिन्य
ओ अस्तु भगिनि अस्तु
अवगच्छ उत्तम उत्तमप्रश्नः भगिनि धन्यवादः
धन्यवादः
प्रदर्शिन्यर्थं फार् द शो लैक् सम्बडी सेड् फार् द शो
कार्यक्रमावलीम् अर्थं किं भगिनि
कार्यक्रमः अस्ति कार्यक्रमः इस् एन् इस् अ प्रोग्राम् आवली इस् द आक्चुअल् प्रोग्राम् शीट् Avali means a list.
धन्यवादः
कुत्र अस्ति प्रदर्शिन्यावली कार्यक्रमावली कार्यक्रम आवली सो दिस् इस् आल्सो समस्तपदं देर् आर् सो मेनि समासास् हियर् interesting astu agre gachamah kalo astu etani bahuvachana rupani ha
bani we are not at the last one number 12 is missing and we are left there was
okay karuna paniyam okay bhavan eva karoti mahodaya करुणापानीयं
व्यवस्थापितवती स्थापितवती व्यवस्थापितवती
करेक्ट् स्थापितवती व्यवस्थापितवती उत्तम आवरणे दत्तानां वर्तमानरूपाणां भूतकालरूपाणि बहुवचने लिखत अस्तु आवरणे इत्युक्ते किम्
वितिन् द ब्राकेट्
सप्तमी विभक्ति आवरणम् आवरणे दत्तानां रूपं किं
षष्ठी बहुवचन
षष्ठी बहुवचन दत्तानां वर्तमानरूपाणाम् ओके षष्ठी बहुवचनं दत्तानां वर्तमानरूपाणां वर्तमानकालरूपाणां दे डिड् नाट् रैट् काल बट् दट् इस् वर्तमानकाल वर्तमानकालरूपाणां भूतकालरूपाणि प्रथमा वा द्वितीया विभक्ति वा
द्वितीया इति अहं चिन्तयामि भगिनि
निश्चयेन द्वितीया एव भूतकालरूपाणि लिखत बहुवचने लिखत कथं जानीमः भूतकाल रूपाणि प्रथमा
कर्ता अस्ति क्रिया अपि अस्ति लिखत इति अस्ति
लिखत इति क्रियापदम् अण्ड् वेर् इस् द कर्ता
भवती
एक्साक्ट्लि इट् इस् अण्डर्स्टुड् खलु अत्र
For me, translating in Tamil is easier. Vivakiyangalai.
Exactly. Much, much easier. In our own Matra Bhasha, it's much more easier. Astu. Balakaha patam patanti. Balakaah patam patanti. Balakaah patam patita vantaha. Vantaha because of balakaah. बालिका अस्ति चेत् पठितवत्यः इति भवति. अस्तु अग्रे गोपिका भगिनी आरम्भ.
भगिनी गोपिके पर्याप्तं
गोपिके गोपिके.
छात्राः कोलाहलं कृतवन्तः
कृतवन्तः. अत्र वयं कथं जानीमः पुल्लिङ्गं वा स्त्रीलिङ्गं वा इति?
कर्ता छात्रः बहुवचनमस्ति छात्राः.
अस्तु छात्रा इति अस्ति चेत् छात्राः एव कृतवती.
आम् आं भगिनि, परन्तु पुल्लिङ्गमेव वयं स्वीकुर्मः.
एक्साक्ट्लि आम् समीचीनम्. अस्तु सागरी भगिनि.
ते वाक्यानि वदन्ति. ते वाक्यानि उक्तवन्तः.
उक्तवन्तः कथं जानीमः पुल्लिङ्गम् इति?
सः तौ ते.
उत्तमं. सः तौ ते. केतकी भगिनि.
आं भगिनि. बालिकाः गीतं गायन्ति. बालिकाः गीतं गायन्त्यवती.
सो द रूपम् इस् गीत
गीत गीतवती.
बालिकाः पुनः वदतु. बालिकाः
गीतं न बालिकाः गीतवती.
No, no. बालिकाः गीतं
बालिकाः गीतं गायन्ति गायन्त्यवती.
न न बालिकाः गीतं गीतवत्यः.
गीतवत्यः बालिकाः
गीतवान् गीतवती गीतवन्तः गीतवत्यः. गीतवत्यः. अस्तु शारदा भगिनी.
आं भगिनि. भवत्यः कथां लिखन्ति. भवत्यः कथां लिखितवत्यः.
लिखितवत्यः. भवत्यः इति स्त्रीलिङ्गपदं. भवत्यः. उत्तमम् उत्तमं भगिनि, धन्यवादः. श्रीनिवास महोदय.
आं भगिनि. विद्यार्थिनः क्रीडाङ्गणे क्रीडन्ति.
सो अत्र किञ्चित् भिन्नरूपम् एतत्. विद्यार्थिनः इति विद्यार्थिन् विद्यार्थिन् इति नकारान्तपदम्. विद्यार्थिन् विद्यार्थिन् विद्यार्थिनः. सो दिस् इस् अ पुल्लिङ्गपदम्. इट्स् लैक् योगी योगिन् योगिन् योगिनौ योगिनः. स्वामिन् स्वामिनौ स्वामिनः. सो दिस् इस् विद्यार्थिन् विद्यार्थी विद्यार्थिनौ विद्यार्थिनः. ओके.
क्रीडाङ्गणे क्रीडितवन्तः.
क्रीडितवन्तः. उत्तमं
भगिनि. भगिनि एक प्रश्नः.
वदतु भगिनि.
गायन्ति. सो गायन्ति इस् अ फस्ट् गायन्ति गायन्ते.
नो नो गायन्ति इस् अ क्रियापदं खलु. सो वी केनाट् से लैक् नामपदम्. गायति गायन्ति गायति गायतः गायन्ति एकवचनं गायति बालिका गायति
गायति
बालिके गायतः बालिकाः गायन्ति
गायन्ति बहुवचन सो हौ केन् ऐ मेक् हौ केन् ऐ मेक्
सो अस्तु सो द गायति यु हाव् टु गो टु द धातु खलु द धातु इस् घी एक्चुलि फार् देट् वित् देट् यु हाव् टु एड् द तव तु प्रत्यय सो इट् बिकम् गीतवत्
गीतवत्
सो गीतवत् विल् बि द मूलरूपम् to that you have to make it strilingam va pullingam va balika geetavati
geetavati
bahuvachana atah geetavatyah
geetavatyah astu astu bhagini astu geetavatyah dhanyavad bhagini
dhanyavad swagatam astu sarve vishayah astu savita bhagini sarve vishayah
आं भगिनि सर्वे विषयं ज्ञातवन्तः
कथं जानाति पुल्लिङ्ग इति
सः
उत्तमं सर्वः सर्वौ सर्वे सर्वः सर्वौ सर्वे उत्तमं
सर्वे विषयं ज्ञातवन्तः
उत्तमं भगिनि
भगिनि वाट् इस् सर्वः इस् पुल्लिङ्गं वा
आम्
वाट् इस् स्त्रीलिङ्गं भगिनि
सर्वा सर्वा सर्वे सर्वाः
सर्वा
सर्वा सर्वं नपुंसकलिङ्गपदम्
अस्तु भगिनि
अस्तु अग्रे सन्ध्या भगिनी
सो भगिनी दिस् इस् अ रेण्डम् क्वश्चन् वेन् वि से सर्वे जनाः सुखिनो भवन्तु इट्स् लैक् सेङ्ग् ऐ मीन् इन् मोस्ट् बुक्स् वि रैट् ही फार् बोत् जेण्डर्स् इस् इट् लैक् देट्
बट् यु नो इन् जनरल् वि जस्ट् गो वित् द मेल् लैक् फार् एक्साम्पल् इन् द फस्ट् एक्साम्पल् रैट् ऐ आस् गोपिका भगिनी हौ डस् शी नो इट् इस् पुल्लिङ्ग
pullinga right
it could be strilinga but if we don't know we assume pullinga
right right
and that's how it is
okay okay
but we sarvam sarve and sarvani
sarvani aste sandhya bagini
bagini can you give us more exercise for this
oh no bagini atra bahu asti kalo
Bhagini, we are not sure about this thing. I am doing so many mistakes.
So we have to go to Abhyasa Patram, Bhagini. There is a nice book, Abhyasa Patram.
Uh-huh.
So you get that book, the answers are in the back. Because if I start bringing that book into this class, then we can never finish anything.
Okay, Bhagini.
Okay. But if everybody wants, we can do it. But, you know, I'm just, I think this exercise is enough. If everybody wants to do more, then we can get more exercise from Abhyasa Patram and all that.
Astu Bhagini, dhanyavad. I will get it.
Yeah.
I'm still creating a lot of mistakes around. Janati, Nyatavantaha. So those kind of dhatu versus that usage form, that itself is giving a lot of confusion still.
Yeah. So for that, what we have to do is we have to go to this one, right? The Kriyapadam. The Koshtakam is here. Patitavan, Patitavati. So you have to know this well. Anitavan. But of course the Gayati is not here. Janati is here, Nyatavan is here, but not Gayati, Geetavan is not here. अस्तु सन्ध्या अभवत् खलु सन्ध्या भगिनी आर् नो
नो भगिनी
अस्तु वदतु
सभ्याः भाषणं श्रुतवन्तः
सभ्याः भाषणं श्रुतवन्तः अस्तु
सभ्याः पुल्लिङ्ग
पुल्लिङ्ग एव
बहुवचनं अत एव श्रुतवन्तः
उत्तमम् उत्तमं भगिनि अस्तु अग्रे परमेश्वर
क्षम्यतां भगिनि सभ्याः अर्थः कः
सभ्याः
बहुवचनं एकवचनं किम् अस्ति भगिनि
सभ्या आक्चुली सभ्यः सभ्यः सारि सभ्यः
सभ्यः अस्तु भगिनि धन्यवादः
अस्तु परमेश्वर महोदय
वयं प्रातःकाले उत्तिष्ठामि सो इट् शुड् बि वयं प्रातःकाले उत्तिष्ठवान्
सो दिस् इस् आल्सो लिटिल् बिट् डिफ़्रेण्ट् इट् इस् आक्चुलि उत्थितवन्तः अत्र नास्ति कुत्र अस्ति उत्थितवान् उत्थितवती उत्थितवन्तः
अहं प्रातःकाले उत्थितवन्तः
वयं प्रातःकाले उत्थितवन्तः उत्थितवन्तः अस्तु रम्या भगिनी
वयं लेखनीं क्रीणामि श्रीलिङ्गं वयं लेखनीं क्रीतवती
क्रीतवत्यः उत्तमं क्रीणीमः क्रीतवत्यः स्त्रीलिङ्गे क्रीतवत्यः पुल्लिङ्गे कथं भवति भगिनि
क्रीतवन्तः बहुवचनमिति क्रीतवन्तः
उत्तमम् अस्तु अन्य कोऽपि अस्ति वा
अहमस्ति उमाकृष्णन्
उमाकृष्णन् भगिनि न पृष्टवती वा अहम् अस्तु भगिनि क्षम्यतां वदतु
गृहिण्याः दीक्षां ददाति
दत्तवान् सो अत्र गृहिण्यः इति अस्ति सो अतः पुल्लिङ्गं वा स्त्रीलिङ्गं वा एतत्
पुल्लिङ्ग बहुवचनं
सो द वे टु फैण्ड् औट् इस् वेनेवर् वी हेव् यः ओके वेनेवर् वी हेव् यः इट् इस् आल्वेस् ईकारान्त स्त्रीलिङ्गपदम्
ओके
लेखनी लेखन्यः कूपी कूप्यः ओके
सो इट् इस् गृहिण्यः दीक्षां दत्तवत्यः
दत्तवत्यः गृहिणी गृहिण्यौ गृहिण्यः गृहिण्यः भिक्षां दत्तवत्यः
ओके ऐ अण्डर्स्टुड्
उत्तमम् अग्रे गोपिका भगिनी गोपिके सारि गोपिके
भगिन्यः श्लोकान् स्मृतवत्यः
स्मृतवत्यः किमर्थं श्लोकान् इति अस्ति
श्लोकः पुल्लिङ्गः श्लोकान् द्वितीया अस्ति कर्ता अस्ति क्रिया अपि अस्ति अतः श्लोकान्
श्लोकान् द्वितीया बहुवचनरूपम् उत्तमम् अस्तु
भगिनि स्मरन्ति धातु किं
स्मृ हौ डु वि नो ओके सो ऐ गो टु द कोश ओके ऐ गो टु द कोश ऐ केन् गो टु एनी कोश ओके सो ऐ जस्ट्
Smriti.
I just chose this. This is easy for me. Vadatu Mahodaya.
Smriti. Smriti.
Smriti. Exactly. Smriti. Supposing you don't know all that, you just go to Smriti. Atra likhatu. Smriti. Smriti.
Astu Bhagini.
Astu. अस्तु अग्रे केतकी भगिनि
भगिनि
भवती न कृतवती अस्तु वदतु
ताः फलानि कर्तयन्ति ताः फलानि कर्तितवत्यः
कर्तितवत्यः उत्तम कर्तितवत्यः अस्तु अग्रे
दातु भगिनि कर्तयति दातु कर्तृ इस् इट्
अहं चिन्तयामि कर्त इति
कर्प
ऐ ऐ एम् नाट् श्योर् सो ऐ गो हियर् कर्तयति अस्तु अग्रे केतकी भगिनि
आं भगिनि एते किमर्थं न आगच्छति आगच्छन्ति एते किमर्थं न आगतवत् आगतवत्यः
वत्यः वा
आगतवती न
एते इति पुल्लिङ्गं वा स्त्रीलिङ्गं वा
स्त्रीलिङ्गं वा
नो एते ताः इति पुल्लिङ्गं वा स्त्रीलिङ्गं वा ताः
ताः इस् स्त्रीलिङ्ग
ताः इस् स्त्रीलिङ्ग एते
इस् स्त्रीलिङ्ग
नो हौ केन् दे बोथ
Again, I'm forgetting everything.
So, sa, te, tah, strilinga, okay, sa, strilinga. So, for ete, it'll be eshaha,
etaha,
eshaha, I'm sorry, eshaha, etau, etau, etau,
ete,
ete. पुल्लिङ्गपदं
पुल्लिङ्ग
इदानीं वदतु एते
एते किमर्थं न आगच्छन्ति आगत्य वत्यः
वत्यः इस् स्त्रीलिङ्ग
आगत्यवती
किमर्थं न आगतवन्तः
आगतवन्तः वन्तः इस् अ पुल्लिङ्ग वन्तः क्षम्यतां भगिनि
इट्स् ओके भगिनि इट्स् ओके
नो भगिनि ऐ एम् फर्गेटिङ्ग् एव्रिथिङ्ग्
गतवान् गतवन्तः सो भगिनि इन् द पुस्तकम् इट् इस् देर् आन् पेज् 42 मम पुस्तके 42 अस्ति अत्र पश्यतु भूतकाले पुल्लिङ्गे स्त्रीलिङ्गे इति
अस्ति यस् 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 ऐ सा भगिनि
अस्ति वा अस्तु
अस्ति अस्ति वन्तः इन्स्टेड् आफ् देट् ऐ रोट् वत्यः क्षम्यतां भगिनि
नो 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 क्षमा किमा किमपि नास्ति गतवान्
भगिनि वै ऐ एम् फर्गेटिङ्ग् एव्रिथिङ्ग्
इट्स् ओके सो यु हेव् टु डू मोर् वर्क् दट्स् आल् अस्तु अग्रे अग्रे का अशारदा भगिनि
आं भगिनि भवन्तः पानीयं पिबन्ति भवन्तः पानीयं पीतवन्तः किम्
पीतवन्तः भवन्तः पुल्लिङ्गपदं पीतवन्तः पुल्लिङ्ग अपि अस्तु श्रीनिवासमहोदय एताः
आं भगिनि एताः उच्चैः हसन्ति स्त्रीलिङ्गपदं हस्तवत्यः
हसितवत्यः कथं जानीमः हसित इति सो यु लुक् अट् द धातु हसति हसति हस् धातु सो अत्र वेन् वि हेव् पट् धातु पठित खलु पट् धातु पठितवान् पठित हस् धातु हसित लैक् दट् ऐ मीन् इट्स् नाट् आल्वेस् लैक् दिस् बट् मोस्ट्लि I see Kirtiki's point, some more homework, but I will see where I can find it. Nischayena preshayami.
It's okay, Bhagini. I will get the book.
Okay. So, Agrima Abhyas, so any questions about the Bhutakala?
Bhagini?
Ah.
Tiganta padam... स्वान्तपदम् उदाहरणं क्यान् यु गिव् मोर् उदाहरणं कृतन्तपदं दिस् वन्
या सो 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 फ्रम् द धातु ओके सो ऐ कीप् टेकिङ्ग् पार्ट् सो फ्रम् दिस् धातु इट् केन् गो इन् टु टू डिफ्रेण्ट् डैरेक्षन्स् सो पठन्ति इस् अ तिङन्तपदम् पठन्ति करोति वदति वदन्ति दिस् आर् आल् तिङन्तपदं सो दिस् आर् आल् क्रियापदानि दि अदर्स् आर् आल् नामपदानि सो द क्रियापदानि आर् गवर्न्ड् बै सर्टन् रूल्स् रूल्स् अस्ति तत्र लिङ्गभेदः नास्ति पुरुषभेदः अस्ति अत्र पुरुषभेदः नास्ति लिङ्गभेदः अस्ति So they go into nama padam or what we call kridanta padam. This is tinganta padam, this is krit. So it's actually krit, but then after that it is an a, so it becomes kridanta padam, kridanta. The takara will become dakara because of some sandhi rules. We don't want to get into that now. So we have Tinganta and Kridanta. So far, what are all the Kridanta Rupanis we have learnt are the Patitavan, for example. Patitavan, Patitavati. And we have also learnt Patitva. And we have learnt Patitum. Have you learnt anything else? No, Kalo, Patitavan. पठित्वा पठितुम् एव सो इफ् यु वाण्ट् मोर् एक्साम्पल्स् वि केन् पिकप् लिखति लिक् लिक् धातु आन् दिस् सैड् वि हेव् लिखति
सो लिखितवती
लिखितवती सो इट् इस् एक्चुलि इ पठितव पट् पठित लिक् लिखित
लिखित
बट् गायति द रूपम् इस् घी
घी
गीत
अस्तु भगिनि सो गीत गीत गायति गीतवत्यः
गीतवती गीतवत्यः गीतवान् गीतवन्तः So, Atra, we have the Latlakara, Likati. And then we have also learnt Lotlakara, Likatu. And then what else have we learnt? Lekishyati. We have learnt भविष्यत् काल
लेखिष्यति
लेखिष्यति लिखति लिखतु लेखिष्यति अत्र लिखितवती लिखित्वा
लिखितवश्
लेखितुं
लिखितुं
वै इस् इट् लेखितुं दर् इस् अगेन् सम् रूल्स् बट् इट्स् ओके लेखितुं सो दीस् आर् आल् द रूपाणीस् वी हाव् लर्न्ड् सो फार्
आं भगिनि यस्
भगिनि नेक्स्ट् द वर्ड् वदन्ति the root the dhatu is vad right?
yes yes
how does it change to uktavantah then
I was grammatical rules right yeah. Bagini
actually I was hoping nobody would ask that question okay so before somebody asked me to give more examples is this okay Bagini
Bagini
I think it was Ramya Bagini Kalo who asked for this.
Aam Bagini.
Ah.
Aam Astu Bagini. Haan Agavat.
Ah. Astu. So Atra. Ah.
Kradanta. How many types are there in Kradanta's Bagini?
Oh, there are so many Bagini. So many.
So far we have learnt 3 types Kalo
Bagini. Only 3. Yeah, only 3. Yeah, we have learnt only 3.
Astu.
All kriyapadam will become tigantapadam.
Aam. Everything starts with the dhatu of the kriyapadam.
Tigantapadam
is the kriyapadam.
Yeah. Namapadam, all namapadam will be kridantapadam.
Aam, yes.
Kridantapadam.
Aam. So we call it Subhantapadam also. So from the dhatu, for example, the word for enjoying is ram, ramate, like that, ram. From the ram dhatu, we get ramate. And then from there, we get the, ramaha. He makes everybody be happy, ramaha. Rama, rather, rama. So everything starts from the dhatu. Actually, to be even more specific, we have sup. We call it sup. Subhantapadam. We go into. So this is actually nama padam. Actually, I'm going somewhere. I don't know where I'm going. So this is nama padam. Subhantapadam and Tingantapadam. So this is also another category. So it goes into Tingantapadam or Subhantapadam. Tingantanam, Subhantanam, Vakyam. That's what they say. So in a Vakyam, there are only 2 types of words. One are the Tinganta category, the other ones are the Subhanta category. So in the Subhanta, we add the all the pratyaya is also in this subhanta. Okay. So, I mean, just...
Swanta padam will come in which category, Bagini?
Swanta padam are in the subhanta padam category.
Oh. Because
all the pratyayas are everything in the subhanta, in the... What do you call it? The Kridanta category, and the Kridanta category are in the Subhanta category. So it's like that. Okay, astu. Agre samayaha savat nasti astu. Okay, this is, it should be a much easier one, I think. Kimartam pratidinam bhavatyaha agamane vilambaha. So we have samayaha asti, hyaha, parahyaha, kada. So all these will answer kada. And then gata agami. So we have learnt all these kalo.
Bhagini, this first sentence, when we sambhashanam to office, we can use that, right?
Bhavatyaha agamane kimartam vadatu.
Kimartam
vadatu.
Astu bhagini.
Okay, I think time is up for today, but so we will just give an introduction today. So atra agamanam iti asti kalo. Agamanam is actually agachati split into agamanam karoti.
Vibhajya prayogah
va. Vibhajya prayogah samyak. Patati patanam karoti. Likati lekhanam karoti. So from the lekhanam karoti, agamanam karoti, we can get the artham also. Udaharan artham, saha patanam karoti. Patanam karoti. So we just eliminate the karoti. Okay, gachatu. Patanam. Kimartam gachati patana artam patanartam. Okay, so we get the artam derivation from this vibhajya prayogah. How will we write gayati? Gayati is difficult. How will we write pachati? Aham pacham.
Pachanam.
Pachanam karoti.
Okay, this is also difficult. So I will write it pakam.
Pakam.
Pakam karomi. Or pachanam karomi.
Oh. Pachanam. Kriyapadam. Oh, astro.
So it is pach. Pach dharadu.
So Bhagini, what we say, what is the title of this?
Yeah, this is called Vibhajya Prayogah.
Vibhajya Prayogah. Uh-huh.
Vibhajya means to split it.
Okay.
Vibhajanam karoti. And that is where we get Vibhakti also. Vibhajya. So we are separating the different usages. Okay. So, so that is where we get the word Vibhakti also. Vibhajya, separating it.
So we find out the dhatu, what is the dhatu first, and then we can use that?
Yeah, so we look at the kriyapadam. Uh-huh. We can take any kriyapadam. Gacchati. Okay. Gacchati. And then you have gamanam karoti. Okay.
Uh-huh.
So the dhatu is also gam dhatu, gam.
Right.
Gamanam karoti. Aham gachami, aham gamanam karomi.
Gamanam karomi. Okay.
Agamanam karomi. So this one, agamanam or gamanam, if you take this we can use it in different vibhaktis. This now becomes a namapadam. From this dhatu, we have the gachati, the tingantapadam. From here, the vibhajya prayogah asti. When we use karoti, gamanam karoti, patanam karoti, ganam karoti, pachanam karoti, atava pakam karoti, lekhanam karoti.
Okay, Bhagini. This is a new one.
Karoti. So now,
use in different vibhaktis, Bhagini.
Yeah, so atra agamane. In your coming, there is, this is a very, very interesting point here. So atra, so प्रथमाविभक्तिरूपं कथं कथं भवति? रामस्य आगमनं भवति. रामास् कमिङ्ग् ऐ मेक् इट् आगमनं. Rama's coming is happening. Ramasya agamanam bhavati.
Right.
Look at his coming.
Hmm.
How can we change it to look at his coming?
Ramasya agamanam pashyatu.
Ramasya agamanam pashyatu. How can we change it to tritiya? महोदय वदतु, I'll give somebody else a chance. अस्तु महोदय वदतु.
रामस्य आगमने
आगमनेन आगमनेन
कोलाहलं भवति.
रामस्य आगमनेन कोलाहलं भवति. रामस्य आगमनेन सन्तोषम् अनुभवामि. वि केन् से एनिथिङ्ग् खलु. रामस्य आगमनेन. अस्तु गोपिके, भवती किम् उक्तवती? रामस्य आगमनेन
आनन्दं भवति.
रामस्य आगमनेन लक्ष्मणः सीता च आगच्छति. सम्यक् वा भगिनि?
आगमनेन रामस्य आगमनेन नो धनि हटिते राम रामेण सह सीता लक्ष्मणः
आगच्छति.
रामस्य आगमनेन अहम् आनन्दम् अनुभवामि. आनन्दं भवति. अस्तु रामस्य आगमनार्थम् अन्य somebody else want to say रामस्य आगमनार्थम्
आगमने
आगमने इस् सप्तमी. आगमनम् इस् प्रथमा आर् द्वितीया. आगमनेन तृतीया. आगमनार्थं
चतुर्थी.
आगमनार्थं किं करोति?
पञ्च.
अहं रामस्य आगमनार्थं पूजां करोमि.
पूजां करोमि. रैट् भगिनि. वी केन् यूस् आल् द विभक्ति.
आल् द विभक्तिस् वी केन् यूस्. सो दिस् इस् wonderful, very wonderful usage.
Bhagini, can you always also say Ramaya Pujam Karomi?
That is different. We are not using the Agamane. Agamanam.
Okay.
Ramaya Pujam Karomi. Ramaya Pujayami. No, for Ramaya, no, you can only say Ramam Pujayami.
I thought for Prarthayami Vandate, it's only Chaturthi Vibhakti.
So you have to use it in those things. Ramaya Pujam Arpayami.
Okay.
So
okay.
It has to be in the sense of giving. Arpayami. Pujam Arpayami.
Interesting, Bhagini.
Yeah, it is very interesting. I love this Vibhajya Prayoga.
Aha. We will learn.
Eka prashnaha. Vibhajya Prayoga Sashti Eva Upayogam Karaniyamva. Sashti?
Ramasya Agamanam. Yeah, Ramasya. Nischayena.
Bhagini, can we say Ramasya Agamanaya Aham Tishthami?
Uttamam. Ramasya Agamanaya. आगमनार्थम् अहं तिष्ठामि. ऐ एम् वेटिङ्ग्. अहं प्रतीक्षां करोमि. ऐ एम् वेटिङ्ग्. अहं प्रतीक्षां करोमि.
रामस्य आगमनार्थम् अयोध्या जनैः शृङ्गारयति.
जनैः अयोध्या नगरं जनैः शृङ्गार. इट् इस् डेकोरेटेड् बै पीपल्. यस्, उत्तमम्. अस्तु पञ्चमी. रामस्य आगमनात्
भगिनि अहं विवक्षामि. रामस्य अथवा कृष्णस्य आगमनात् मम तृप्तिः अभवत्.
आगमनात् मम तृप्तिः अभवत् कृष्णस्य उत्तमम् or you can use anything else, okay? Yeah. But it has to be Shashti. Very, very good point, Bhagini. It has to be Shashti.
Astu, Bhagini.
So, Atra, Saptami asti, Ragamane. Ramasya Agamane, Mama. Iccha asti.
आगमने मम इच्छा अस्ति आगमने मम चिन्ताम् अस्ति
अहमपि अस्तु धन्यवादः
धन्यवादः भगिनि
शान्तिमन्त्रं वदामः ॐ सर्वे भवन्तु सुखिनः
सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु सर्वे सुखभाग्भवे ॐ शान्ति शान्ति शान्तिः हरिः ॐ गुरुभ्यो नमः हरिः ॐ
धन्यवादः भगिनी
धन्यवादः
हेपी न्यू इयर्
हेपी न्यू इयर्